अस्य श्री राहु कवच स्तोत्र मंत्रस्य चंद्रमा ऋषिः अनुष्टुप् छन्दः राम बीजं नमः शक्तिः स्वाहा कीलकम् राहु प्रीत्यर्थं जपे विनियोगः
नासिकामि